अथ साङ्ख्ययोगनामद्वितीयोऽध्यायः सञ्जय उवाच तं तथा कृपयाभीष्टम् अश्रुपूर्णाकुलेक्षणम् वीषिदन्तम् इदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वा कस्मलमिदं